चन्द्रमा आत्मा अन्तरासो भन्नो धावते दिवि नवो हिरण्यनेमयः पदम् विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी अर्थविद्वावो अधिराजायो मते पतिम् तुञ्जाले वृष्ट्यम् वयः परिदायरसन्दुहे वित्तम् मे अस्य रोदसी मोडुले वा अदस्वा अरवपादि दिवस्परि मासोऽज्ञस्य शम्भुवस्तूने भूमकदाचर वित्तम् मे अस्य रोदसि यज्ञम् पृच्छाम्यवमंसतद्धूतो विवोचति मृतम् पूर्व्यम् गतम् कस्तद्विभक्तिनोदानो वित्तम् मे अस्य रोदसि अमीये देवास्तन दृष्ट्वा रोदने दिवः कद्वृतम् गदमृदम् पप्रत्नबाहोजर्वित्तम् मे अस्य रोदसि कद्वृतस्य धर्मसि गर्वरुणस्य दक्षणम् कदर्यम् नो महस्पथाधिक्रामेव दूढ्यो वित्तम् मे अस्य रोदसि अहङ्गो अस्मयः पुरा सुदेवदामिकानिचित् तम् माम्यञ्चाद्यो मृगो न दृष्टजम् मृगम् वित्तम् मे अस्य रोदसि सर्वातमन्त्यभितः सपत्नीरिव वर्षवः मूषो वशिष्टाभ्यादन्ति बाध्यस्तोतारम् केशदक्रतो वित्तम् मे अस्य रोदसि अमीये सन्तरस्मयस्तत्रा मेनाभिराजता वितस्तद्वेदाभ्यः सजा वित्ताय रेभति वित्तम् मे अस्य रोदसि अमीये पञ्चोक्षणो मध्ये तस्तुर्महो दिवः देवत्राणुप्रवाच्यम् सद्भीजीनानि वा मृतुर्वित्तम् मे अस्य रोदसि सुपर्णायेता सते मध्य आरोधने दिवः देशे सन्ति पथो मृगन्तरम् गण्यष्पजीरपो वित्तम् मे अस्य रोदसि नव्यम् तदुख्यम् हितम् देवादस्वप्रवाचनम् हृदमर्षन्ति सिन्धवः सत्यम् तातान सूर्यो वित्तम् मे अस्य रोदसि आज्ञेतवत्य दुःख्यम् देवेष्वस्याप्यम् सहस्रत्तोमरुष्पदा देवाक्षिभिदुष्टरो वित्तम् मे अस्य रोदसि सत्तो होता मनुष्पदा देवाक्षाभिदुष्टरः अग्निर्हव्याशूषोदति देवो देवेषु मे धीरो वित्तम् मे अस्य रोदसि ब्रह्माग्णो दिवरो नो गातुविदन्तमीमहे व्यो नो दिहृता मतिम् नव्यो जायता मृतम् वित्तम् मे अस्य रोदसि असौ यः पन्था नित्यो दिविप्रवाच्यम् कृतः न स देवाधिक्रमेतम् मत्तासो नपश्यत वित्तम् मे अस्य रोदसि ऋतः कूपेव हितो देवाभूतये तच्छस्रावबृहस्पतिः कृण्वन्नम् होरणादुर्वित्तम् मे अस्य रोदसि अरुणो मा सकृद्भृगः पथायन्तम् ददर्शहि उद्दीहीते निजाय्यातष्टेव वृष्ट्यावी वित्तम् मे अस्य रोदसि ेण भयमिन्द्रवन्तोभिष्यामभृजने सर्वा वीराः तन्मा मित्रो वरो मा